एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। एतत् विक्रमवर्षीयस्य प्रतिनिधिसभा निर्वाचनस्य अन्तर्गतम् राजनीतिकदलैः समानुपातिक निर्वाचन प्रणाल्याः गोप्यसूचीम् प्रस्तोतुम् प्रारब्धम् वर्तते। निर्वाचनायोगेन क्रियान्वितायाः कार्यतालिकायाः अनुसारेण ह्य अद्य च समानुपातिक निर्वाचन प्रणाल्याः गोप्यसूचीम् प्रस्तुतुम् समयः निर्धारितोऽस्ति। तत्र कतिपयैः राजनीतिकदलैः ह्य एव गोप्यसूची प्रस्तुतास्तीति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। राजनीतिकदलैः प्रस्तुतानाम् समानुपातिक प्रणाल्याः गोप्यसूचीनाम् विषये श्वस्तन दिवसात् पौषमासस्य विंशम् दिवसम् यावत् अध्ययनस्य समय निर्धारितोऽस्तीति असौ अज्ञापयत्। माघमासस्य विंशे दिवसे समानुपातिक प्रणाल्याः प्रत्याशिनाम् अन्तिमाम् सूचीम् प्रकाशयितुम् कार्यतालिका निर्धारितास्तीति च प्रवक्ता भट्टराई असूचयत्। अत्रान्तरे निर्वाचनायोगेन प्रतिनिधिसभा सदस्यानाम् आसन्न निर्वाचनस्य कृते क्रियान्वियमाणाम् एतद्विक्रमवर्षीयाम् आचारसंहिताम् स्वीकृत्य तत्रत्यायाः व्यवस्थायाः विषयः विज्ञापितः वर्तते। आयोगस्य वेबसञ्जाले ह्य प्रकाशिता आचारसंहिता आगामिन माघमासस्य प्रथमसप्ताहात् क्रियान्वेष्यते इति आयोगेन ज्ञापितम् वर्तते। निर्वाचनम् स्वच्छम् स्वतन्त्रम् भयरहितम् मर्यादितम् विश्वसनीयम् च सम्पादयितुम् आयोगेन आचारसंहितायाः कतिपयान् विषयान् परिवर्त्य आचारसंहिता निर्मितास्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः ह्यस्तनोपवेशे दलेन निर्वाचनायोगे समानुपातिक पक्षतः प्रत्याशिनाम् नामावल्याः प्रस्तुतेर्विषये विमृष्टम् वर्तते। सा नेपावर्तिनी दलकेन्द्रीय कार्यालये ह्य उपविष्टे उपवेशे समानुपातिक पक्षस्य दशोत्तरैक शत संख्यातानाम् प्रत्याशिनाम् प्रचयनस्य विषये विमृष्टम् अस्ति। अद्य अन्तिमाम् सूचीम् निर्वाचनायोगे प्रस्तोतुम् पूर्वकार्यम् विहितम् अस्तीति नेपाली कांग्रेस दलेन ज्ञापितम् वर्तते। प्रदेशानाम् जनपदानाम् च समितिभ्य परामृष्टायाम् नामावल्याम् आवश्यकताया अनुसारेण प्रदेश जनपद समितिभिः सह विमृश्य प्रत्याशिनाम् अन्तिमा नामावली निर्मास्यते इति दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत असूचयत्। नेकपा एमाले दलेन फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते समानुपातिक पक्षस्य प्रत्याशिनाम् गोप्यसूचीम् निर्वाचनायोगे प्रस्तोतुम् निर्णीतमस्ति। ललितपुरस्य च्यासलवर्तिनी एमाले दलस्य केन्द्रीय कार्यालये उपवेशेन अद्य आयोगे समानुपातिक पक्षस्य प्रत्याशिनाम् गोप्यसूचीम् प्रेषयितुम् निर्णीतमस्तीति एमाले दलस्य उपमहासचिव लेखराज भट्ट असूचयत्। उपमहासचिवस्य भट्टस्य अनुसारेण दलेन जनपदेभ्य प्रदेशेभ्यश्च प्राप्ता समानुपातिक प्रणाल्याः प्रत्याशिनाम् अन्तिमा नामावली आयोगे प्रेषयिष्यते। संचार सूचना प्रविधि मन्त्री जगदीश खरेल कथयति राजनीतिक दलैश जेएनजी प्रतिनिधिभिश्च सहितस्य सर्वपक्षीयोपवेशस्य उपवेशनस्य पश्चात् आगामिन फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य निर्वाचनस्य वातावरणम् निर्मितम् वर्तते। संचार मन्त्रालयस्य नेपाल पत्रकार महासंघस्य गण्डकी प्रदेश समित्याश्च संयुक्त आयोजनायाम् ह्य सम्पन्ने कार्यक्रमे नेपाल सर्वकारस्य प्रवक्ता च संचार मन्त्री खरेलः सर्वकारस्य प्रतिबद्धतायाः निर्वाचनायोगस्य पूर्वकार्याणाम् राजनीतिक दलानाम् सक्रियतायाश्च कारणेन निर्वाचनम् सुनिश्चितमस्तीति उदैरयत्। तदवसरे संचार मन्त्री खरेल प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य वातावरणम् निर्मितमस्तीत्यतः उद्घुष्ट दिनांके एव निर्वाचनम् सम्पादयितुम् सर्वकाराय सहयोगम् विधातुम् सर्वान् अन्वरुणत्। राष्ट्रिय स्वतन्त्र दलस्य काष्ठमण्डप महानगरपालिकायाः प्रमुखस्य च बालेन्द्र साहस्य च मध्ये विभिन्नेषु विषयेषु सप्तसूत्रीय सहमतिः धृतास्ति। एतयोर्मध्ये पूर्वेद्यो सहमति धृता वर्तते। सार्वजनिककृतस्य विवरणस्य अनुसारेण नवयुवभिः भ्रष्टाचारस्य कुशासनस्य च विरुद्धे विहितमान्दोलनं प्रति स्वत्वं विज्ञाप्य आहतानां हुतात्मा परिवाराणां च याचनायाः यथोचितं सम्बोधनं करिष्यते इति सहमतौ लिखितं वर्तते। एवमेव सहमतौ दलस्य केन्द्रीय सभापतिः रवि लामिछाने एव भवति। आसन्न प्रतिनिधिसभायाः निर्वाचनस्य पश्चात् संसदीय दलस्य नेता भावि प्रधानमन्त्रिणः प्रत्याशी बालेन्द्र शाह भविष्यतीति च उल्लिखितं वर्तते। नेपाली कांग्रेस दलेन राष्ट्रिय सभाया अधिवेशनम् अविलम्ब रूपेण आह्वयितुं याचना विहितास्ति। नेपाली कांग्रेस दलस्य राष्ट्रिय सभाया प्रमुख सचेतक पदीयस्य कृष्ण बहादुर रोकाया इत्यस्य नेतृत्वस्य समूहेन ह्यो राष्ट्रिय सभाया अध्यक्षस्य नारायण प्रसाद दाहालस्य समक्षम् नेपाली कांग्रेस दलस्य निर्णयस्य विषये ज्ञापयता एवं याचना विहितास्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समिते अशैव पौषमासस्य द्वादशे दिवसे उपविष्टेन उपवेशेन विहितान् निर्णयान् क्रियान्वेतुं निर्दिष्टमस्ति। नेपाली कांग्रेस दलेन ह्य विज्ञप्तिं प्रकाश्य दलस्य सर्वेष् प्रादेशिक जनपदीयाश्च समितिः सम्बोध्य निर्णयमिमं क्रियान्वेतुं निर्दिष्टम् वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन शैत्यस्य समये अग्नितापस्य ग्रहणस्य समये हिटर गीजर आदिनां वैद्युतोपकरणानां प्रयोगस्य समये च सावधानताम् अवलम्बितुं सर्वे अनुरुद्धाः वर्तन्ते। मन्त्रालयस्य प्रवक्ता डा प्रकाश बुढाथोकी शैत्ययामे अग्नेः तापस्य ग्रहणस्य समये सावधानतायाः अवलम्बनस्य अभावे गभीरघटनानां सम्भावना भवतीति उक्त्वा सावधानताम् अवलम्बितुं सर्वे सर्वान्नागरिकान् अन्वरुणत। प्रवक्ता बुढाथोकी शरीरे प्रकोष्ठेषु च उष्णोत्पादनस्य कृते वैद्युतोपकरणानां प्रयोगस्य समये अग्ने प्रज्वालनस्य च समये वायोः निर्गमनस्य पर्याप्तं स्थानमस्ति न वेति विचारयितुं सर्वान् अनुरुद्धवान् वर्तते। इति समाचाराः।